ಶ್ರೀ ದತ್ತಭಾವ ಸುಧಾರಸ ಸ್ತೋತ್ರಂ ಓಂ ಶ್ರೀ ಗಣೇಶಾಯ ನಮಃ ಶ್ರೀ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀಪಾದವಲ್ಲಭ ನರಸಿಂಹ ಸರಸ್ವತಿ ಶ್ರೀ ಗುರು ದತ್ತಾತ್ರೇಯಾಯ ನಮಃ ದತ್ತಾತ್ರೇಯಂ ಪರಸುಖಮಯಂ ವೇದಗೇಯಂ ಹ್ಯಮೇಯಂ ಯೋಗಿಧ್ಯೇಯಂ ಹೃತನಿಜಭಯಂ ಸ್ವೀಕೃತಾನೇಕಕಾಯಂ ದುಷ್ಟಾಗಮ್ಯಂ ವಿತತ ವಿಜಯಂ ದೇವದೈತ್ಯರ್ಷಿವಂದ್ಯಂ ವಂದೇ ನಿತ್ಯಂ ವಿಹಿತ ವಿನಯಂ ಚಾವ್ಯಯಂ ಭಾವಗಮ್ಯಂ ದತ್ತಾತ್ರೇಯ ನಮೋಸ್ತುತೇ ಭಗವತೇ ಪಾಪಕ್ಷಯಂ ಕುರುವತೇ ದಾರಿದ್ರ್ಯಂ ಹರತೇ ಭಯಂ ಶಮಯತೇ ಕಾರುಣ್ಯಮಾತನ್ಮತೇ ಭಕ್ತಾನುದ್ಧರತೇ ಶಿವಂ ಚ ದದತೇ ಸತ್ಕೀರ್ತಿಮಾತನ್ವತೇ ಭೂತಾನ್ ದ್ರಾವಯತೇ ವರಂ ಪ್ರದದತೆ ಶ್ರೇಯಃಪತೇ ಸದ್ಗತೇ ಏಕಂ ಸೌಭಾಗ್ಯಜನಕಂ ತಾರಕಂ ಲೋಕನಾಯಕಂ ವಿಶೋಕಂ ಭಕ್ತತ್ರಾತಾರಂ ನಮಶ್ಯೇ ಕಾಮಪೂರಕಂ ನಿತ್ಯಂ ಸ್ಮರಾಮಿ ತೇ ಪಾದೌ ಹತಖೇದೌ ಸುಖಪ್ರದೌ ಪ್ರದೇಹಿ ಮೇ ಶುದ್ಧಭಾವಂ ಭಾರಂ ಯೋ ವಾರಯೇ ಧೃತಂ ಸಮಸ್ತ ಸಂಪತ್ಪ್ರದಮಾರ್ಥಬಂಧುಂ ಸಮಸ್ತ ಕಲ್ಯಾಣದಮಾಪ್ತಬಂಧುಂ ಕಾರುಣ್ಯಸಿಂಧುಂ ಪ್ರಣಮಾಮಿ ದತ್ತಂ ಯಶೋಧಯತ್ಯಾಸು ಮಲೀನಚಿತ್ತಂ ಸಮಸ್ತ ಭೂತಾಂತರಬಾಹ್ಯವರ್ತಿ ಯಶ್ಚಾತ್ರಿಪುತ್ರೋ ಯತಿ ಚಕ್ರವರ್ತಿ ಸುಕೀರ್ತಿ ಸಂವ್ಯಾಪ್ತ ದಿಗಂತರಾಳಃ ಸಪಾತು ಮಾಂ ನಿರ್ಜಿತ ಭಕ್ತಕಾಲಃ ವ್ಯಾಧ್ಯಾಧಿದಾರಿದ್ರ್ಯಭಯಾರ್ತಿಹರ್ತಾ ಸ್ವಗುಪ್ತಯೇ ನೈಕ ಶರೀರಧರ್ತಾ ಸ್ವದಾಸಭರ್ತಾ ಬಹುಧಾ ವಿಹರ್ತಾ ಕರ್ತಾಪ್ಯಕರ್ತಾ ಸ್ವವಸೋರಿಹರ್ತಾ ಸಚಾನಸೂಯಾತನಯೋ ಭವದ್ಯೋ ವಿಷ್ಣು ಸ್ವಯಂ ಭಾವಿಕ ರಕ್ಷಣಾಯ ಗುಣಾಯ ದೀಯಾ ನಹಿ ಬುದ್ಧಿಮದ್ಭಿಃ ಗಣ್ಯಂತ ಆಕಲ್ಪಮಪೀಹ ಧಾತ್ರಾ ನ ಯತ್ ಕಟಾಕ್ಷಾಮೃತ ವೃಷ್ಟಿತೋತ್ರ ತಿಷ್ಠಂತಿ ತಾಪಾಃ ಸಕಲಾಃ ಪರತ್ರ ಯಃ ಸದ್ಗತಿಂ ಸಂಪ್ರದದಾತಿ ಭೂಮಾಂ ಸಮೇಂತರೇ ತಿಷ್ಠತು ದಿವ್ಯಧಾಮ ಸತ್ವಂ ಪ್ರಸೀದಾತ್ರಿಸುತಾರ್ತಿಹಾರಿನ್ ದಿಗಂಬರ ಸ್ವೀಯ ಮನೋವಿಹಾರಿನ್ ದುಷ್ಟಾಲಿಪಿರ್ಯಾ ಲಿಖಿತಾತ್ರ ಧಾತ್ರಾ ಕಾರ್ಯಾ ತ್ವಯಾ ಸಾತಿ ಶುಭಾವಿಧಾತ್ರಾ ಸರ್ವಮಂಗಳ ಸಂಯುಕ್ತ ಸರ್ವೈಶ್ವರ್ಯ ಸಮನ್ವಿತಾ ಪ್ರಸನ್ನೇ ತ್ವಯಿ ಸರ್ವೇಶೇ ಕಿಂ ತೇಷಾಂ ದುರ್ಲಭಂ ಗುರೋ ಹಾರ್ದಾಂಧತಿಮಿರಂ ಹಂತುಂ ಶುದ್ಧ ಜ್ಞಾನ ಪ್ರಕಾಶಕ ತ್ವದಂಘ್ರಿನಖ ಮಾಣಿಕ್ಯ ದ್ಯುತಿರೇವಾಲಮೀಶನಃ ಸ್ವಕೃಪಾರ್ದ್ರಕಟಾಕ್ಷೇಣ ವೀಕ್ಷಸೇ ಚೇತ್ ಸವೃದ್ಧಿ ಮಾಂ ಭವಿಷ್ಯಾಮಿ ಕೃತಾರ್ಧೋತ್ರ ಪಾತ್ರಂ ಚಾಪಿ ಸ್ಥಿತೇಸ್ತವ ಕ್ವಚ ಮಂದೋ ವರಾಕೋಹಂ ಕ್ವ ಭವಾನ್ ಭಗವಾನ್ ಪ್ರಭು ಅಥಾಪಿ ಭವದಾವೇಶ ಭಾಗ್ಯವಾನಸ್ಮಿ ತೇ ದೃಶ ವಿಹಿತಾನಿ ಮಯಾ ನಾನಾ ಪಾತಕಾನಿ ಜಯದ್ಯಪಿ ಅಥಾಪಿ ತೇ ಪ್ರಸಾದೇನ ಪವಿತ್ರೋಹಂ ನ ಸಂಶಯಃ ಸ್ವಲೀಲಯಾ ತ್ವಂ ಹಿ ಜನಾನ್ ಪುನಾಶಿ ತನ್ಮೇ ಸ್ವಲೀಲಾಶ್ರವಣಂ ಪ್ರಯಚ್ಛ ತಸ್ಯಾಶ್ರುತೇ ಸಾಂದ್ರ ವಿಲೋಚನೋಹಂ ಪುನಾಮಿ ಚಾತ್ಮಾನಮತೀವ ದೇವ ಪುರತಸ್ಥೇ ಸ್ಫುಟಂ ವಚ್ಮಿ ದೋಷರಾಶಿರಹಂ ಕಿಲ ದೋಷಾ ಮಮಾಮಿತಾಃ ಪಾಂಸು ವೃಷ್ಟಿಬಿಂದು ಸಮಾವಿಭೋ ಪಾಪೀಯಸಾಮಹಂ ಮುಖ್ಯಃ ತ್ವಂ ತು ಕಾರುಣಿಕಾಗ್ರಣೀಹಿ ದಯನೀಯೋ ನ ಹಿ ಕ್ವಾಪಿ ಮದನ್ಯ ಇತಿ ಭಾತಿ ಮೇ ಈದೃಶಂ ಮಾಂ ವಿಲೋಕ್ಯಾಪಿ ಕೃಪಾಲೋತೇ ಮನೋ ಯದಿ ನ ದ್ರವೇತ್ತರಿಹಿ ಕಿಂ ವಾಚ್ಯಂ ಅದೃಷ್ಟಂ ಮೇ ತವಾಗ್ರತಃ ತ್ವಮೇವ ಸೃಷ್ಟವಾನ್ ಸರ್ವಾನ್ ದತ್ತಾತ್ರೇಯ ದಯಾನಿಧೇ ವಯಂ ದೀನತರಃ ಪುತ್ರಾಃ ತವಾಕಲ್ಪಾಸ್ವರಕ್ಷಣೇ ಜಯತು ಜಯತು ದತ್ತೋ ದೇವ ಸಂಘಾಭಿಪೂಜ್ಯೋ ಜಯತು ಜಯತು ಭದ್ರೋ ಭದ್ರದೋ ಭಾವುಕೇಭ್ಯಃ ಜಯತು ಜಯತು ನಿತ್ಯೋ ನಿರ್ಮಲ ಜ್ಞಾನವೇದ್ಯೋ ಜಯತು ಜಯತು ಸತ್ಯಃ ಸತ್ಯಸಂಧೋ ನವದ್ಯಃ ಯದ್ಯಹಂ ತವ ಪುತ್ರಸ್ಯಾಂ ಪಿತಾ ಮಾತಾ ತ್ವಮೇವ ಮೇ दयास्तन्यामृतेनासु मातस्त्वम् अभिषिञ्च माम् ईशाभिन्ननिमित्तोपादानत्वात् स्वष्टुरस्यते जगद्योनेसुतो नाहम् दत्त माम् परिपाह्यतः तव वत्सस्य मे वाक्यम् सूक्तम् वा सूक्तमप्यहो क्षन्तव्यम् मे पराधश्च त्वत्तोऽन्यानगतिर्हि मे अनन्यगति कस्यास्य बालस्य मम ते पितः न सर्वथोचितोपेक्षा दोषाणाम् गणनापि च अज्ञानित्वादकल्पत्वाद्दोषा मम पदे पदे भवन्ति किम् करोमीश करुणावरुणालया अथापि मे पराधैश्चेत् आयासि अन्तर्विषादताम् पदाहतार्भकेनापि माता रुष्यति किम् भुवि रङ्कमङ्कगतम् दीनम् ताडयन्तम् पदेन च माता किम् त्यजति बालम् प्रत्युताश्वासयत्यहो तादृशम् माम् अकल्पम् चेन्नाश्वासयसि भो प्रभो अहहापदीनस्य त्वाम् विना मम का गतिः शिशुर्नायम् शठस्वार्थेत्यपि नायातु तेऽन्तरम् लोके हि क्षुदितबालाः स्मरन्ति निजमातरम् जीवनम् भिन्नयोः पित्रोर्लोक एकतराक्षिशोः त्वम् तु भयम् दत्त मम मास्तु निर्दयता मयि स्तवनेन न शक्तोऽस्मि त्वाम् प्रसादयितुम् प्रभो ब्रह्माद्याश्च कितास्तत्र मन्दोऽहम् शक्नुयाम् कथम् दत्तत्वद्बालवाक्यानि सूक्तासूक्तानि यानि च तानि स्वीकुरु सर्वज्ञ दयालो भक्तभावना ये त्वाम् शरणमापन्नाः कृतार्था अभवन् हि ते एतद्विचार्य मनसा दत्तत्वाम् शरणम् गतः त्वन्निष्ठास्त्वत्परा भक्तास्तव ते सुखभागिनः इति शास्त्रानुरोधेन दत्तत्वाम् शरणम् गतः स्वभक्ताननु गृह्णाति भगवान् भक्तवत्सलः इति संचिन्त्य संचिन्त्य कथम् चिद्धारयाम्यसून् त्वद्भक्तस्त्वदधीरोऽहमस्मि तुभ्यम् समर्पितम् तनुम् मनोधनम् चापि कृपाम् कुरु ममोपरि त्वयि भक्तिम् नैव जाने न जानेऽर्चन पद्धतिम् कृतम् न दानधर्मादिप्रसादम् कुरु केवलम् ब्रह्मचर्यादिनाचीर्णम् नाधीता विधितश्रुतिः गार्हस्थ्यम् विधिना दत्त न कृतम् तत्प्रसीद मे न साधुसङ्गमो मेऽस्ति न कृतम् वृद्धसेवनम् न शास्त्रशासनम् दत्त केवलम् त्वम् दयाम् कुरु ज्ञातेऽपि धर्मे न हि मे प्रवृत्तिः ज्ञातेऽप्यधर्मे न ततो निवृत्तिः श्रीदत्तनाथेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि स्मृतिः सेवा गतिर्यात्रा स्मृतिश्चिन्ता स्मृतिर्वचः भवन्तु दत्त मे नित्यम् त्वदीया एव सर्वदा प्रतिज्ञातेन भक्ता मे नश्यन्तीति सुनिश्चितम् श्रीदत्तचित्त आनीय जीवनम् धारयाम्यहम् दत्तोऽहम् ते मयेतीश आत्मदानेन यो भवतु असूया त्रिपुत्रः सह श्रीदत्त शरणम् मम कार्तवीर्यार्जुनायादाद्योगर्धिमुभयीम् प्रभुः अव्याहतगतिम् चासौ श्रीदत्तशरणम् मम आन्वीक्षकीमनर्काय विकल्पत्यागपूर्वकम् योदादाचार्यवर्यः सह श्रीदत्तशरणम् मम चतुर्विंशति गुर्वाप्तम् हेयोपादेयलक्षणम् ज्ञानम् यो यदवेदात् सह श्रीदत्तशरणम् मम मदालसागर्भरत्नालर्काय प्राहिणोच्चयः योगपूर्वात्मविज्ञानम् श्रीदत्तशरणम् मम आयुराजाय सत्पुत्रम् सेवाधर्मपरायः प्रददौ सद्गतिम् चैषः श्रीदत्तशरणम् मम लोकोपकृतये विष्णुदत्तभिप्राययोऽर्पयत् विद्यास्तच्छ्राद्धभुव्यः सह श्रीदत्तशरणम् मम भर्त्रा सहानुगमनविधिम् व्यप्राह सर्ववित् राममात्रे रेणुकायै श्रीदत्तशरणम् मम समूलमाह्निकं कर्म सोमकीर्तिनृपाययः मोक्षोपयोगी सकलं श्रीदत्तशरणं मम नामधारक भक्ताय निर्विण्णाय व्यदर्शयतु तुष्टस्तुत्या स्वरूपं सः श्रीदत्तशरणं मम यः कलिब्रह्म संवादमिषेणाह युगस्थितिः गुरुसेवां च सिद्धा स्यात् श्रीदत्तशरणं मम दुर्वासस्यापमाश्रित्य योऽम्बरीषार्थमव्ययः नानावतारधारी सः श्रीदत्तशरणं मम अनसूया सती दुग्धा स्वादा एव त्रिरूपतः अवातरदयोऽपि श्रीदत्तशरणं मम पीठापुरे यः सुमतिब्राह्मणे भक्तितो भवतु श्रीपादः तत्सुतस्त्राता श्रीदत्तशरणं मम प्रकाशयामास सिद्धमुखात् स्थापनमादितः महाबलेश्वरस्यैषः श्रीदत्तशरणं मम चण्डाल्यपि यतो मुक्ता गोकर्णे तत्र यो वसत् लिङ्गतीर्थमये त्र्यब्दं श्रीदत्तशरणं मम कृष्णाद्वीपे कुरुपुरे कुपुत्रं जननीयुतं यो हि मृत्योरपाच्छ्रीपात् श्रीदत्तशरणं मम रजकायापि दास्यं यो राज्यं कुरुपुरे प्रभुः तिरोभूदज्ञदृष्ट्या सह श्रीदत्तशरणं मम विश्वासघातिनश्चोरान् स्वभक्तघ्नान् निहत्ययः जीवयामास भक्तं सः श्रीदत्तशरणं मम करञ्जनगरेऽम्बायाः प्रदोषं व्रतसिद्धये यो भूत्सुतो नृहर्याख्यः श्रीदत्तशरणं मम मूको भूत्वा व्रतात् पश्चाद्वदन् वेदान् स्वमातरं प्रव्रजन् बोधयामास श्रीदत्तशरणं मम काशीवासी स सन्न्यासी निराशीष्वप्रदो वृषं वैदिकं विशदीकुर्वन् श्रीदत्तशरणं मम भूमिं प्रदक्षिणीकृत्य सशिष्यो वीक्ष्य मातरं जहारद्विजशूरार्तिं श्रीदत्तशरणं मम शिष्यत्वेनोररीकृत्य सायं देवं ररक्षयः भीतं च क्रूरयवनात् श्रीदत्तशरणं मम प्रेरयेत्तीर्थयात्रायै तीर्थरूपोऽपि यस्वकान् सम्यग्धर्ममुपादिश्य श्रीदत्तशरणं मम सशिष्यपर्यलीक्षेत्रे वैद्यनाथसमीपतः स्थित्वोद्दधारमूढं यः श्रीदत्तशरणं मम विद्वत्सुतमविद्यं यः आगतं लोकनिन्दितं छिन्नजिह्वं बुधं चक्रे श्रीदत्तशरणं मम नृसिंहवाटिकास्थो यः प्रददौ शाकभुन्निधिं दरिद्रब्राह्मणायासौ श्रीदत्तशरणं मम भक्ताय त्रिस्थलीयात्रां दर्शयामास यः क्षणात् चकारवरदं क्षेत्रं श्रीदत्तशरणं मम प्रेतार्तिं वारयित्वा यो ब्राह्मण्यै भक्तिभावितः ददौ पुत्रौ स गतिदः श्रीदत्तशरणं मम तत्त्वं यो मृतपुत्रायै बोधयित्वाप्यजीवयत् मृतं कल्पद्रुमस्तः सः श्रीदत्तशरणं मम दोहयामास भिक्षार्थं यो वन्ध्यां महिषीं प्रभुः दारिद्र्यदावदावः सः श्रीदत्तशरणं मम राजप्रार्थितयेत्यास्थान्मठे योगाणगापुरे ब्रह्मरक्षः समुद्धर्ता श्रीदत्तशरणं मम विश्वरूपं निन्दकाय शिबिकास्थस्वलङ्कृतः गर्वहादर्श यद्यः सः श्रीदत्तशरणं मम त्रिविक्रमेण चानीतौ गर्वितौ ब्राह्मणद्विषौ बोधयामास तौ यः सः श्रीदत्तशरणं मम उक्त्वा चतुर्वेदशाखास्तदङ्गादिकमीश्वरः विप्रगर्वहरो यः सः श्रीदत्तशरणं मम सप्तजन्मविदं सप्तरेखोल्लङ्घनतो ददौ यो हीनाय श्रुतिस्फूर्तिम् श्रीदत्तशरणं मम त्रिविक्रमायाः कर्म गतिम् दत्तविदा पुनः वियुक्तम् पतितम् चक्रे श्रीदत्तशरणं मम रक्षसे वामदेवेन भस्ममाहात्म्यमुद्गतिम् उक्ताम् त्रिविक्रमायाः श्रीदत्तशरणं मम गोपीनाथसुतो रुक्नो मृतः तत् स्त्री सुशोचताम् बोधयामास यो योगी श्रीदत्तशरणं मम गुर्वगश्चर्षि संवादरूपं स्त्रीधर्ममाहयः रूपान्तरेण सप्राज्ञः श्रीदत्तशरणं मम विधवा धर्ममादिश्यानुगमं चाक्षभस्मदः अजीवयन्मृतं विप्रं श्रीदत्तशरणं मम वेश्या सत्यैतु रुद्राक्षमाहात्म्ययुतमीकृतम् प्रसादम् प्राहयः सत्यै श्रीदत्तशरणं मम शतरुद्रीयमाहात्म्यम् मृतराक्षुतजीवनम् सत्यै शशंस सगुरुः श्रीदत्तशरणं मम कचाख्यानम् स्त्रियो मन्त्रामर्हतार्थसुभाग्यदम् सोमम् व्रतम् च यत्राह श्रीदत्तशरणं मम ब्राह्मण्यादुःस्वभावं यो निवार्यान्हिकमुत्तमम् शशंश ब्राह्मणायासौ श्रीदत्तशरणं मम गार्हस्थ्यधर्मम् विप्राय प्रत्यवाय जिहासया क्रममुख्यै यमूचे सह श्रीदत्तशरणं मम त्रिपुं पर्याप्तपाकेन भोजयामास यो गुणान् सिद्धश्चतुःसहस्राणि श्रीदत्तशरणं मम अश्वत्थसेवाम् आदिश्य पुत्रौ योदात्फलप्रदः चित्रकृद्वृद्धवन्ध्यायै श्रीदत्तशरणं मम कारयित्वा शुष्ककाष्ठसेवाम् तद्वृक्षदान्नयन् विप्रकुष्ठम् जहारासौ श्रीदत्तशरणं मम भजन्तम् कष्टतोऽप्याह सायम् देवम् परीक्ष्ययः गुरुसेवाविधानम् सह श्रीदत्तशरणं मम शिवतोषकरीम् काशीयात्राम् भक्ताय यो वदत् सविधिम् विहिताम् त्वष्ट्रा श्रीदत्तशरणं मम कौन्दिन्यधर्मविहितम् अनन्तम् व्रतमाहयः कारयामास तद्योऽपि श्रीदत्तशरणं मम श्रीशैलं तं तु कायासौ योगगत्या व्यदर्शयत् शिवरात्रिव्रताहे सः श्रीदत्तशरणं मम ज्ञापयित्वाप्यमर्त्यत्वं स्वस्य दृष्ट्या चकारयः विकुष्ठं नन्दिशर्माणं श्रीदत्तशरणं मम नरकेसरिणे स्वप्ने स्वं कल्लेश्वरलिङ्गगम् दर्शयित्वानुजग्राह श्रीदत्तशरणं मम अष्टमूर्तिधरोऽप्यष्टग्रामगोभक्तवत्सलः दीपावल्युत्सवे भूत्सः श्रीदत्तशरणं मम अपक्वं छेदयित्वापि क्षेत्रे शतगुणं ततः धान्यं शूद्राय योदात्सः श्रीदत्तशरणं मम गाणगापुरके क्षेत्रे योष्टतीर्थान्यदर्शयत् भक्तेभ्यो भीमरध्यां सः श्रीदत्तशरणं मम पूर्वदत्तवरायादाद्राज्यं स्फोटकरुग्घरः म्लेच्छाय दृष्टिं चेष्टां सः श्रीदत्तशरणं मम श्रीशैलयात्रामिषेण वरदः पुष्पपीठकः कलौ तिरोभवद्यः सः श्रीदत्तशरणं मम निद्रामातृपुरेश्य सह्यशिखरे पीठं मिमङ्क्षापुरे काश्याख्ये करहाटकेभ्यमवरे भिक्षास्य कोलापुरे पाञ्चाले भुजिरस्य विठ्ठलपुरे पत्रं विचित्रं पुरे गान्धर्वे युजिरा च मक्पुरुपुरे दूरे स्मृतोनान्तरे अमलकमलवक्त्रः पद्मपत्राभनेत्रः परविरतिकलत्रः सर्वधा यस्वतन्त्रः సచ పరమ పవిత్రః సత్కమండల్వమత్రః పరమ రుచిర గాత్రోయో అనసూయాత్రిపుత్రః నమస్తే నమస్తేష్టదాత్రే విధాత్రే నమస్తే నమస్తేడితా ఘౌఘహత్రే నమస్తే నమస్తేంగితజ్ఞాయ భత్రే నమస్తే నమస్తేష్టకర్త్రే కహర్త్రే నమో నమస్తేస్తు పురాంతకాయ నమో నమస్తేస్త్వసురాంతకాయ నమో నమస్తేస్తు ఖలాంతకాయ దత్తాయ భక్తార్తి వినాశకాయ శ్రీదత్తదేవేశ్వర మే ప్రసీద శ్రీదత్త సర్వేశ్వర మే ప్రసీద ప్రసీద యోగేశ్వర దేహి యోగం త్వదీయ భక్తేః కురు మా వియోగం దత్తాత్రేయం పరసుఖమయం వేదగేయం హ్యమేయం యోగిధ్యేయం హృతనిజ భయం స్వీకృతానేకకాయం దుష్టాగమ్యం వితత విజయం దేవదైత్యర్షి వంద్యం వందే నిత్యం విహిత వినయం చావ్యయం భావగమ్యం దత్తాత్రేయ నమోస్తుతే భగవతే పాపక్షయం కురువతే దారిద్ర్యం హరతే భయం శమయతే కారుణ్యమాతన్వతే భక్తానుద్ధరతే శివం చ దదతే సత్కీర్తిమాతన్వతే భూతాంద్రావయతే వరం ప్రదదతే శ్రేయఃపతే సద్గతే శ్రీదత్తో జయతి హ దత్తమనిషం ధ్యాయామి దత్తేన మే హృచ్ఛుద్ధిర్విహితా తతోస్తు సతతం దత్తాయ తుభ్యం నమః దత్తాన్నాస్తి పరాయణం శృతిమతం దత్తస్య దాసోస్మ్యహం శ్రీదత్తే పరభక్తిరస్తు మమ భో దత్త ప్రసీదేశ్వరా.
ఇతి శ్రీ పరమహంస పరివ్రాజకాచార్య శ్రీ వాసుదేవానంద సరస్వతీ విరచితం దత్తభావసుధారస స్తోత్రం సంపూర్ణం.